അതെ
അറിയാട്ടോ. ഹലോ,
ഇനി വാണ്ണോ ഹിച്ചെ പറയാ കുഞ്ഞിനെ
እዛው ጋ ነው የተማቲት? እዛው ጋ እዛው ጋ ቆመ ጠይቃቸው። ሰው ጠይቅ።
ምን ብዬ ጠይቃቸው?
ልጅ ገብረ ማርያም ትምህርት ቤት ጎን ያለው ኢትዮ ቴሌኮም የቱ ነው በላቸው።
እስኪ አንድ ሽ ጠይቃቸው።